ॐ नमो भगवते वासुदेवाय। अथैकसप्ततितमोऽध्यायः। श्रीशुक उवाच, इत्युदीरितमाकर्ण्य देवर्षे रुद्धवो ब्रवीत्, सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः। उद्धव उवाच, यदुक्तम् ऋषिणा देव साचिव्यम् यक्षतस्त्वया, कार्यम् पैतृस्वसेयस्य रक्षा च शरणैषिणाम्। यष्टव्यम् राजसूयेन दिक्चक्रजैना विभो, अतो जरासुतजय उभयार्थो मतो मम। अस्माकम् च महानर्थो एतेनैव भविष्यति, यशस्य तव गोविन्द राज्ञो बद्धान् विमुञ्चतः। स वै दुर्विषहो राजा नागायुत समो बले, बलिनामपि चान्येषाम् भीमम् समबलम् विना। द्वैरथे सतु जेतव्यो मा सताक्षौहिणीयुतः, ब्रह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित्। ब्रह्मवेषधरो गत्वा तम् भिक्षेत वृकोदरः, हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ। निमित्तम् परमीशस्य विश्वसर्गनिरोधयोः, हिरण्यगर्भ सर्वश्च कालस्यारूपिणस्तव। गायन्ति ते विशदकर्म गृहेषु देव्यो, राज्ञाम् स्वशत्रुवधमात्मविमोक्षणम् च। गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः, पित्रोश्च लब्धशरणामुनयो वयम् च। जरासन्दवतः कृष्ण भूर्यर्थायोपकल्पते, प्रायः पाकविपाकेन तव चाभिमतः क्रतुः। श्रीशुक उवाच, इत्युद्धव वचो राजन् सर्वतो भद्रमच्युतम्। देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन्, अथा दिशत् प्रयाणाय भगवान् देवकीसुतः। भृत्यान् दारुकजैत्रादीननुज्ञाप्य गुरून् विभुः, निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान्। सङ्कर्षणमनुज्ञाप्य यदुराजम् च शत्रुहन्, सूतोपनीतम् स्वरथमारुहत् गरुडध्वजम्। ततो रथद्विपभटसादिनायकैः करालया परिवृत आत्मसेनया, मृदङ्गभैर्यानकशङ्खगोमुखैः प्रघोषघोषितककुभो निराक्रमत्। नृवाजिकाञ्चन शिबिकाभिरच्युतम् सहात्मजापतिमनुसुव्रतायुः। वराम्बराभरणविलेपनस्रजः सुसंवृता नृभिरसि चर्मपाणिभिः, नरोश्रगो महिषखराश्वतर्यनः करेणुभिः परिजनवारयोषितः। स्वलङ्कृता कटकुटिकम्बलाम्बरा द्युपस्करायुरधि युज्य सर्वतः, बलम् बृहद्ध्वज पटछत्र चामरैर्वरायुधाभरण किरीटवर्मभिः। दिवांशुभिस्तु मूलरवम् बभौरवेर्यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः। अथो मुनिर्यदुपतिना सभाजितः, प्रणम्यतम् हृदि विदधत् विहाय सा। निशम्य तद्व्यवसितमारितार्हणो मुकुन्द सन्दर्शन निर्वृतेन्द्रियः। राजदूतमुवाचेदम् भगवान् प्रीणयन् गिरा, मा भैष्टदूतभद्रम् वो घातयिष्यामि मागधम्। इत्युक्तः प्रस्थितो दूतो यथा वदवदन् नृपान्, तेऽपि सन्दर्शनम् सौरेः प्रत्ययीक्षन् यन्मुमुक्षवः। आनर्तसौवीरमरून् स्थीर्त्वा विनशनम् हरिः, गिरीन्नदीरतीयाय पुरग्रामव्रजाकरान्। ततो दृषद्वतीम् तीर्त्वा मुकुन्दोऽथ सरस्वतीम्, पञ्चालानथमत्स्यांश्च शक्रप्रस्थमथागमत्। तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनम् दृणाम्, अजातशत्रुर्निरगात् सोपाध्याय सुहृद्वृतः। गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा, अभ्ययात् स ऋषिकेशम् प्राणाः प्राणमिवादृतः। दृष्ट्वा विक्लिन्नहृदयः कृष्णम् स्नेहेन पाण्डवः, चिराद्दृष्टम् प्रियतमम् सस्वजेथ पुनः पुनः। दौर्भ्याम् परिष्वज्य रमामलालयम् मुकुन्दगात्रम् नृपतिर्हता शुभः। लेभे पराम् निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृतलोकविभ्रमः। तम् मातुलेयम् परिरभ्य निर्वृतो भीम स्मयन् प्रेम जवाकुलेन्द्रियः। यमौ किरीटी च सुहृत्तमम् मुदा प्रवृद्धबास्पाः परिरेभिरेच्युतम्। अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः, ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः। मानितो मानयामास कुरुसृञ्जय कैकयान्, सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिणः। मृदङ्गशङ्खपटः वीणापणवगोमुखैः, ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः संस्तूयमानो भगवान् विवेशालङ्कृतं पुरं संसिक्तवर्त्मकरिणां मदगन्धतोयैश्चित्रध्वजैः कनकतोरणपूर्णकुम्भैः मृष्टात्मभिर्नवदुकूलविभूषणस्रक् गन्धैर्नृभिर्युवतिभिश्च विराजमानम् उद्दीप्तदीपबलिभिः प्रतिसद्मजाल निर्यातधूपरुचिरं विलसत्पताकम् मूर्धन्यहेमकलशैरजतोरुशृङ्गैर्जुष्टं ददर्श भवनैः कुरु राजधाम प्राप्तं निशम्य नरलोचन पानपात्र मौत्सुक्य विश्लसित केशदुकूलबन्धाः सद्यो विसृज्य गृहकर्मपतींश्च तल्पे द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे तस्मिन् सुसङ्कुलैभास्वरसद्विपद्भिः कृष्णं सभार्यमुपलभ्य गृहाधिरूढाः नार्यो विकीर्य कुसुमैर्मनसोपगुह्य स्वस्वागतं विदधुरुत्स्मय वीक्षितेन ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीस्तारायथोडुपसहा किम कार्यमुभिः यच्चक्षुषां पुरुषमौलिरुदारहास लीलावलोककलयोत्सवमातनोति तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः चक्रुः सपर्यां कृष्णाय श्रेणीमुख्याः तैन सह अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः ससम्भ्रमैरभ्युपेतः प्राविशद् राजमन्दिरं पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् प्रीतात्मोत्थाय पर्यङ्कात् सस्नुषा परिषस्वजे गोविन्दं गृहमानीय देवदेवेशमादृतः पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृपः पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनं स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः स्वश्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः आनर्च्य रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा कालिन्दीं मित्रविन्दां च सैव्यां नाग्नजितीं सतीम् अन्याश्चाभ्यागतायास्तु वाससृङ्मण्डनादिभिः सुखं निवासयामास धर्मराजो जनार्दनम् ससैन्यं सानुगामात्यं सभार्यं च नवं नवं तर्पयित्वा खाण्डवेन वह्निं फाल्गुणसंयुतः मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता उवास कतिचिन्मासान् राज्ञः प्रियचिकीर्षया विहरन् रसमारुह्य फाल्गुनेन भटैर्वृतः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्येन्द्रप्रस्थगमनं नामैकसप्ततितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।